वेदपाठाः
यजुर्वेद संहितापाठः
ॐ इषेत्वोर्जेत्वा वायवस्थो पायवस्थ देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमग्निया देव भागमोर्जस्वतेः पयस्वतेः प्रजावतीः अनमीवा अयक्ष्मामावस्तेन ईशतमाघशिगुंसो रुद्रस्य हेतिः परिवो वृणक्तु ध्रुवा अस्मिन् गोपतौ स्यात बह्वेर्यजमानस्य पशून् पाहि इषेत्रि चत्वारिगुंशतु यज्ञस्य घोषदसि प्रत्युष्टगम् रक्षः प्रत्युष्टा अरातयः प्रेयमगाद्धिषणा बर्हिरच्छमनुना कृता स्वधया वितष्टात आवहन्ति कवयः पुरस्तातु देवेभ्यो जुष्टमिह बर्हिरासदे देवानाम् परिशोतमसि वर्षवृद्धमसि देव बर्हिर्मात्मान्वङ्मा तिर्यक्पर्वतेराध्यासम् आच्छेत्ता ते मारिषम् देव बर्हिः शतवलशम् विरोह सहस्रवलशाः विभयगम् रुहेम पृथिव्याः सम्पृतः पाहिषु सम्भृतात्वा सम्भराम्यतिरास्नासीन्द्राण्यै सन्नहनम् पोषाते ग्रन्थिम् ग्रथ्नातु स ते मास्थातिन्द्रस्त्यत्वा बाहुभ्यामुद्यच्छे बृहस्पतेर्मूर्ध्ना हराम्युर्वन्तरिक्षमन्विः देवम् गममसि सहस्रवलशा अष्टात्रिकंशच्च शुन्धध्वम् दैव्याय कर्मणे देवयज्यायै मातरिष्वनः घर्मोऽसि द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना तृगुंहस्वमाः क्वार्वसूनाम् पवित्रमसि शतधारम् वसूनाम् पवित्रमसि सहस्रधारकम् हुतस्तोकः हुतोद्रप्सोऽग्नये बृहतेन कायस्वाहाद्या वा पृथिवीभ्यागुंसा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मा सम्पृच्यध्वमृतावरीः ऊर्मिणेर्मधुमत्तमा मन्द्राधनस्य सातये सोमे नत्वात लक्ष्मीन्द्राय दधि विष्णो हव्यगम् रक्षस्व सोमे नाष्टौ च कर्मणेवान् देवेभ्यश्च केयम् वेषाय त्वा प्रत्युष्टगम् रक्षः प्रत्युष्टा अरातयः धूरसि धूर्वधूर्वन्तम् धूर्वतयोऽस्मान् धूर्वति तन्धूर्वयम् वयम् धूर्वामस्त्वम् देवानामसि सस्नितमम् पप्रितमम् जुष्टतमम् वह्नितमम् देवहूतममः कृतमसि हविर्धानन्द्रगुंहस्वमाह्वार्मित्रस्य त्वा चक्षुषा प्रेक्षे माभेर्मा संविक्था मात्वा हिगुंसिषमुरुवाताय देवस्य त्वा सवितुः प्रसवेष्विनोर्बाहुभ्याम् पूष्णोहस्ताभ्यामग्नये जुष्टम् निर्वपामि अग्नेशोमाभ्यामिदम् देवानामिदमुनः सहस्फात्यै त्वा नारात्यै सुवरभिविख्येषम् वैश्वानरञ्ज्योतिर्दृगुम्हन्ताम् दुर्याद्या वा पृथिव्योः उर्वन्तरिक्षमन्विह्यदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यगम् रक्षस्व मा त्वा षट्चत्वारिगुंसिच्च देवो वस्सवितोत्पुनात्पच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरापो देवीरग्रे पुवो अग्रे गुवोऽग्र इमम् यज्ञम् न यताग्रे यज्ञपतिम् धत्त युष्मानिन्द्रो वृणीत वृत्रतूर्ये योऽयमिन्द्रमवृणेध्वम् वृत्रतूर्ये प्रोक्षितास्था अग्नये वोजुष्टम् प्रोक्षाम्यग्नेशोमाभ्यागुंसुन्धध्वम् दैव्याय कर्मणे देवयज्याय अवधूतगम् रक्षोऽवधूता अरातयोदित्यास्त्वगसि प्रतित्वा पृथिवीवेत्वधिश्रवणमसि वानस्पत्यम् प्रतित्वादित्यास्त्वग्वेत्वग्नेस्तनोरसि वाचो विसर्जनम् देववीतये त्वा गृह्णाम्यद्ररसि वानस्पत्यस्य इदम् देवेभ्यो हव्यगम् सुशमिशमिष्वा इषमावतोर्जमावतद्युमद्वदत वजकम् सङ्घातम् जेष्म वर्षवृद्धमसि प्रतित्वा वर्षवृद्धम् वेत्तु परापूतकम् रक्षः परापूता अरातयो रक्षसाम् भागोऽसि वायुर्वो विविनक्तु देवो वस्सविता हिरण्यपाणिः प्रतिगृह्णातु वा भाग एकादश च अवधूतकम् रक्षोऽवधूता अरातयोदित्यास्त्वगसि प्रतित्वा पृथिवीवेत्तु दिवस्कम्भरिरसि प्रतित्वादित्यास्त्वग्वेत्तु धिषणासि पर्वत्या प्रतित्वा दिवस्कम्भनिर्वेत्तु धिषणासि पार्वतेयी प्रतित्वा पर्वतिर्वेत्तु देवस्यत्वा सवितः प्रसवेऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यामधिवपामि धान्यमसिधिनु हि देवान् प्राणायत्वा पानायत्वा व्यानायत्वा दीर्घामनुप्रसितिमायुषेधान् देवो वत्सविता हिरण्यपाणिः प्रतिगृह्णातु प्राणायत्वा पञ्चदश च
ॐ धृष्टिरसि ब्रह्म यच्छापाग्नेऽग्निमामादञ्जिः निष्क्रव्यादगम् सेधादेवयजम् वः निर्दग्धगम् रक्षो निर्दग्धा अरातयो ध्रुवमसि पृथिवीन्द्रगुम्हायर्दृगुम्ह प्रजान्द्रगुम्हस जातानस्मै यजमानाय पर्यूह धर्त्रमस्यन्तरिक्षन्द्रगुम्ह प्राणन्द्रगुम्हापानन्द्रगुम्ह स जातानस्मै यजमानाय पर्यूह धरुणमसि दिवन्द्रगुम्ह चक्षुः दृगुम्हस्रोत्रन्द्रगुम्हस जातानस्मै यजमानाय पर्यूह धर्मासि दिशो दृगुम्हयोनिन्द्रगुम्ह प्रजान्द्रगुम्हस जातानस्मै यजमानाय पर्यूह चितस्थ प्रजामस्मै रयमस्मै स जातानस्मै यजमानाय पर्यूह भृगोणामङ्गिरसान्तपसा तप्यध्वञ्यानि घर्मे कपालान्युपचिन्वन्ति वेधसः पोष्णस्तान्यपि व्रत इन्द्रवायो विमुञ्चताम् चक्षुरष्टा चत्वारिगुंसित्या संवपामि समापो अद्भिरग्मता समोषधयोरसेन सकम् रेवतीर्जगतेभिर्मधुमतेर्मधुमतेभिः सृज्यध्वम् अद्भ्यः परिप्रजातास्थसमद्भिः पृच्यध्वम् जनयत्येत्त्वा संयोम्यग्नयेत्त्वाग्नेशोमाभ्याम् मखस्य शिरोऽसि घर्मोऽसि विश्वायरुरुप्रथस्वोरुते यज्ञपतिः प्रथताम् वचम् गृह्णेष्वान्तरितगम् रक्षोऽन्तरिता अरातयो देवस्त्वा सविताश्रपयतु वरिषिष्ठे अधिनाकेऽग्निस्ते तनुवम् मातिधागग्ने हव्यगम् रक्षस्व सम्ब्रह्मणा पृच्छ्यस्वैकतायस्वाहाद्वितायस्वाहात्त्रितायस्वाहा सविता द्वाविगुंसतिश्च आदद इन्द्रस्य बाहुरसि दक्षिणः सहस्रभृष्टिः सततेजा वायुरसि तिग्मतेजाः पृथिवीदेवयजन्योषध्यास्ते मूलम् माहिगुंसि समपहतोररुः पृथिव्यै व्रजम् गच्छ गोस्थानम् वर्षतु तेद्योर्बधानदेव सवितः परमस्याम् परावति सते न पाशैर्योऽस्मान्द्वेष्टि यञ्च वयम् द्विष्मस्तमतौ मामोगपहतोररुः पृथिव्यै देवयजन्यै व्रजम् गच्छ गोस्थानम् वर्षतु तेद्योर्बधानदेव सवितः परमस्याम् परावति सते न पाशैर्योऽस्मान्द्वेष्टि यञ्च वयम् द्विष्मस्तमतौ मामोगपहतोररुः पृथिव्या अदेवयजनो व्रजम् गच्छ गोस्थानम् वर्षतु तेद्योर्बधानदेव सवितः परमस्याम् परावति सते न पाशैर्योऽस्मान्द्वेष्टि यञ्च वयम् द्विष्मस्तमतो मा मौगररुस्ते दिवम् मास्कानुवसवस्त्वा परिगृह्णन्तु गायत्रेण छन्दसा रुद्रास्त्वा परिगृह्णन्तु त्रैष्टुभेन छन्दसादित्यास्त्वा परिगृह्णन्तु जागतेन छन्दसा देवस्य सवितुः सवे कर्म कृण्वन्ति वेधस अर्तमस्युर्तसदनमस्युर्तश्रीरसि धा असि स्वधा अस्युर्वी चासि वस्वी चासि पुरा क्रूरस्य विसृपो विरप्सिन्न दादाय पृथिवीम् जेरदानुः यामैरयम् चन्द्रमसि स्वधाभिस्तान्धीरासो अनुदृश्य यजन्ते देवयजन्यै व्रजन्तमतोमाविरप्सिन्नेकादश च प्रत्युष्टकम् रक्षः प्रत्युष्टा अरातयोऽग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामि गोष्ठम् वा निर्मृक्षम् वा जनन्त्वा सपत्नसाहकम् सम्मार्ज्मि वाचम् प्राणम् चक्षुश्रोत्रम् प्रजायो निम्मा निर्मृक्षम् वाजिनीन्त्वा सपत्नसाहीकम् सम्मार्ज्मि आशासानासौ मनसम् प्रजागम् सौभाग्यम् तनूम् अग्नेरनुव्रता भूत्वा सन्नः केशकृतायकम् सुप्रजसस्त्वा वयगम् सुपत्नेरुपा सेदिमा अग्ने सपत्नदम्भनमदब्धासो अदाभ्यम् इमम् विष्यामि वरुणस्य पाशिन्यमबध्नेत सविता सुकेतः धातुश्च योनौ सुकृतस्य लोकेऽस्योनम् मे सह पत्या करोमि समायुषा सम्प्रजया समग्ने वर्चसा पुनः सम्पत्नीपत्याहम् गच्छे समात्मा तनु वा मम महीनाम् पयोऽस्योषधीनागुम् रसस्तस्य ते क्षीयमाणस्य निः पपामि महीनाम् पयोऽस्योषधीनागुम् रसोदब्धेन त्वा चक्षुषा वेक्षे सुप्रजास्त्वा यतेजोऽस तेजोऽनुप्रेह्यग्निस्ते तेजो मा विनैदग्नेऽर्जह्वासि सुभूर्देवानाम् धाम्ने धाम्ने देवेभ्यो यजुषे यजुषे भव शुक्रमसि ज्योतिरसि तेजोऽसि देवो वस्सवितोत्पुनात्पच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः शुक्रम् त्वा शुक्रायाम् धाम्ने धाम्ने देवेभ्यो यजुषे यजुषे गृह्णामि ज्योतिस्त्वा ज्योतिश्चर्त्यस्त्वार्चषि धाम्ने धाम्ने देवेभ्यो यजुषे यजुषे गृह्णामि उपनेरश्मिभिः शुक्रगम् षोडश च कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहा वेदिरसि बर्हिषे त्वा स्वाहा बर्हिरसि सृभ्यस्त्वा स्वाहा दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा स्वधा पितृभ्य ऊर्ध्वम बर्हिषद्भ्यः ऊर्जा पृथिवीम् गच्छत विष्णोस्तूपोऽस्योर्नामृतसम् त्वा स्तृणामि श्वासस्थम् देवेभ्यो गन्धर्वोऽसि विश्वावसुर्विश्वस्मातिशतो यजमानस्य परिधिरिड ईडित इन्द्रस्य बाहुरसि दक्षिणो यजमानस्य परिधिरिड ईडितो मित्रावरुणो त्वोत्तरतः परिधत्ताम् ध्रुवेण धर्मणा यजमानस्य परिधिरिड ईडितः सूर्यस्त्वा पुरस्तात्पातुकस्यास्तिदभिषस्त्यावीतहोत्रम् त्वा कवे द्युमन्तकम् समिधे मह्यग्ने बृहन्तमध्वरे विशो यन्त्रे स्थो वसूनागम् रुद्राणामादित्या नागम् सदसि सीद जुहोरुपभृद्धवासि घृता चेनाम्ना प्रियेण नाम्ना प्रिये सदसि सीद एता असदन्त् सुकृतस्य लोकेता विष्णो पाहि पाहि यज्ञम् पाहि यज्ञपतिम् पाहि माञ्यज्ञनिजम् बाहुरसि प्रिये सदसि पञ्चदश च ॐ